आरम्भं करोतु।
अस्तु भगिनि। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। धन्यवादः भगिनि।
धन्यवादः। किञ्चित् पुनरावर्तनं कुर्मः। गतसप्ताहे यत् किमपि वयं पठितवन्तः तस्मिन् विषये अत्र एकनिमिषं, जनाः आगच्छन्ति। राघवमहोदय, वीणा भगिनी, नमो नमः, सर्वेषां स्वागतम्। एकम् इति नमो नमः,
नमो नमः सर्वेभ्यः,
नमो नमः। एकम् इति संख्यायाः आरभ्य चत्वारि इति संख्यापर्यन्तं ये शब्दाः सन्ति ते त्रिषु लिङ्गेषु सन्ति, तत् वयं पठितवन्तः। अनन्तरं पञ्चमात् आरभ्य लिङ्गभेदः न वर्तते इति अस्ति। पञ्चमात् आरभ्य लिङ्गभेदः न वर्तते इति अस्ति। एकवारं तस्य पुनरावर्तनं वयं कुर्मः। एकवारं तस्य पठनं भवेत्। तस्मात् प्राक् प्रथमतः तु सर्वेषां कृते पुनः एकवारं वदामि, पुल्लिङ्गे, स्त्रीलिङ्गे वा नपुंसकलिङ्गे रूपाणि कानि भवन्ति चेत्, एकः बालकः, यदि बालकः इति पुल्लिङ्गशब्दः, तत्र एकः बालकः एवम् अस्ति। स्त्रीलिङ्गे एका बालिका एवं रूपं भवति, नपुंसकलिङ्गे एकं फलम् एवं भवति। अग्रिमे राधा भगिनी पठति वा एकवारम्?
आं भगिनि। द्वौ युवकौ, द्वे महिले, द्वे फले, त्रयः छात्राः, तिस्रः बालिकाः, त्रीणि फलानि।
सम्यक्। अग्रिमे
चत्वारः चषकाः, चतस्रः नर्तक्यः, चत्वारि पुष्पाणि।
इत्युक्ते एकम् आरभ्य चत्वारि पर्यन्तं तत्र लिङ्गभेदः वर्तते। एकः बालकः, द्वौ युवकौ, एकः बालकः, द्वौ बालकौ, त्रयः बालकाः, चत्वारः बालकाः एवं भवति। बालिका अस्ति चेत् एका बालिका, द्वे बालिके, तिस्रः बालिकाः, चतस्रः बालिकाः एवं भवति। अनन्तरम् एकं फलं, द्वे फले, त्रीणि फलानि, चत्वारि फलानि, फलानि एवं भवति। परन्तु अनन्तरं पञ्च आरभ्य तत्र पञ्चवृक्षाः, पञ्च अजाः, पञ्च छत्राणि। अत्र किमस्ति? वृक्षः इति पुल्लिङ्गपदम्, अजा इति स्त्रीलिङ्गिपदं, छत्रम् इति नपुंसकलिङ्गिपदम्। परन्तु तत्र पञ्च मध्ये कोऽपि भेदः नास्ति। पञ्चवृक्षाः पुल्लिङ्गिशब्दस्य कृते, पञ्च अजाः स्त्रीलिङ्गिशब्दस्य कृते तथैव पञ्चछत्राणि छत्रम् इति नपुंसकलिङ्गि शब्दस्य कृते एवं पञ्च 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 षट् अपि कथं भवति तत् षट् वृक्षाः षट् अजाः षट् छत्राणि एवं भवति सप्त अपि तथैव सप्तवृक्षाः सप्त अजाः सप्तछत्राणि अष्टवृक्षाः अष्ट अजाः अष्टछत्राणि नववृक्षाः नव अजाः नवछत्राणि दशवृक्षाः दश अजाः दशछत्राणि तत्र कोऽपि परिवर्तनं लिङ्गभेदात् न भवति पञ्चमात् आरभ्य लिङ्गभेदः न वर्तते इदानीं किं कुर्मः पुनः एकवारम् अत्र तालिका अस्ति तालिकायाः पठनं कुर्मः जयन्ती भगिनी पठति वा
आं बेनी पठामि
पठतु
टेबल् एव किल बेनी
हा एक इति प्रातिपदिकम् एवं
अस्तु बेनि पठतु अवगच्छतु च प्रातिपदिकम् एक एक पुल्लिङ्गशब्दे एकः स्त्रीलिङ्गे एका नपुंसकलिङ्गे एकं द्वि प्रातिपदिकं द्वौ पुल्लिङ्ग स्त्रीलिङ्गः द्वे नपुंसकलिङ्गः द्वे त्रि प्रातिपदिकं त्रयः पुल्लिङ्गः स्त्रीलिङ्गः तिस्रः नपुंसकलिङ्गः त्रीणि चतुर्प्रातिपदिकं चत्वारः इति पुल्लिङ्गः चतस्रः इति स्त्रीलिङ्गः चत्वारि इति नपुंसकलिङ्गः पञ्चन् इति प्रातिपदिकं पञ्च पुल्लिङ्गः स्त्रीलिङ्गः अपि पञ्च नपुंसकलिङ्ग पञ्च शश इति प्रातिपदिकं षट् इति पुल्लिङ्गे स्त्रीलिङ्गे षट् नपुंसकलिङ्गे अपि षट् सप्तन् इति प्रातिपदिकं सप्त इति नपुंसकलिङ्गे सप्त इति स्त्रीलिङ्गे सप्त इति नपुंसकलिङ्गः अपि अष्टन् इति प्रातिपदिकम् अष्ट पुल्लिङ्गे अपि स्त्रीलिङ्गे अष्ट नपुंसकलिङ्गे अपि अष्ट नवन् इति प्रातिपदिकं नव इति पुल्लिङ्गे स्त्रीलिङ्गे नव नपुंसकलिङ्गे अपि नव दशन् इति प्रातिपदिकं दश इति पुल्लिङ्गे दश इति स्त्रीलिङ्गे नपुंसकलिङ्गे अपि दश
इत्युक्ते अत्र एक द्वि त्रि चतुर् प्रातिपदिकानां कृते लिङ्गभेदः वर्तते पञ्चन् आरभ्य तत्र लिङ्गभेदः न वर्तते एतत् स्पष्टमस्ति सर्वेषां कृते स्पष्टमस्ति
स्पष्टमस्ति
वाट् विल् वि डू नौ द एक्सर्सैस् रैट् सो अत्र चित्राणि सन्ति एकैकं स्वीकृत्य तस्मिन् विषये वदामः सेल्वी भगिनी अस्ति वा
आं माता
इदानीं चित्राणि पश्यतु वदतु तत्र किं दृश्यते गजः आरम्भं करोतु सङ्ख्यायाः योजनेन आरम्भं करोतु
अस्तु एकः गजः त्रयः वृक्षाः
बहु सम्यक् त्रयः वृक्षाः अनन्तरं
द्वे पुष्पे
द्वे पुष्पे बहु सम्यक् अनन्तरं
कोम्
पाञ्चालि
द्वे पाञ्चाले
न अत्र एका एव अस्ति खलु, एका एव दृश्यते, देर् इस् ओन्लि वन् एका पाञ्चालिका. तेलुगु भगिनी,
एकः पाञ्चालिका, एका पाञ्चालिका.
तत्र एकः भवति चेत् पुल्लिङ्गिरूपम्, एका पाञ्चालिका स्त्रीलिङ्गि अस्ति, पाञ्चालिका इति स्त्रीलिङ्गि, अतः एका इति रूपम्, एका पाञ्चालिका. एवं खलु? अग्रिमे
एका
वानराः सन्ति. हा वदतु.
चत्वारि वानराः.
चत्वारः वानराः. चत्वारः
वानरः पुल्लिङ्गे.
पुल्लिङ्गे अस्ति, पुल्लिङ्गे अस्ति तत् किं भवति? चत्वारः. स्त्रीलिङ्गे अस्ति चतस्रः, नपुंसकलिङ्गे अस्ति चेत् चत्वारि. एवं खलु? सो दिस् यु केन् बै हार्ट् वर्टिकलि आल्सो. एकः, द्वौ, त्रयः, चत्वारः पुल्लिङ्गस्य कृते, एका, द्वे, तिस्रः, चतस्रः स्त्रीलिङ्गस्य कृते, एकं, द्वे, त्रीणि, चत्वारि नपुंसकलिङ्गस्य कृते. अत्र कपयः वा कपि वा वानर वा वानराः सन्ति, तत्र पुल्लिङ्गिरूपमस्ति, चत्वारः वानराः एवं भवति. सत्यं खलु सेल्वि भगिनी? सत्यम् अस्ति. अग्रिमे अपि पठतु, नेक्स्ट् लैन् फस्ट् फस्ट् चित्रं किम् अस्ति, प्रथमं चित्रं किम् अस्ति?
कोम्प्.
What is that? इत्युक्ते किम्?
कोमि
कोऽपि सायं करोति वा? अन्य कोऽपि सायं करोति वा? वदति वा?
कङ्कतं.
कङ्कतं, कङ्कतं कथं भवति रूपम्? हौ मेनि आर् देयर्?
द्वे.
सम्यक्, नपुंसकलिङ्गे अस्ति अतः द्वे, द्वे,
द्वे कङ्कतं.
पश्यतु अत्र किं साधर्म्य कुत्र अस्ति? पुष्पं, पुष्पं फलं, नपुंसकलिङ्गे कङ्कतं. तो पुष्पं शब्दस्य द्विवचनान्तरूपं किम् अस्ति भगिनि?
नपुंसकलिङ्गं.
हा, द्विवचनान्तरूपं
द्वे.
हा, पुष्पं, पुष्पे, पुष्पाणि, तत् द्वे कङ्कतं,
कङ्कतं.
हा, सम्यक्. अग्रिमे
त्रिचक्रं.
तत्र द्विचक्रिका अस्ति खलु, बैसिकल् अस्ति, द्विचक्रिका,
त्रिचक्रिका. एका त्रिचक्रिका.
तत्र एक अस्ति वा किमस्ति श्रीलङ्गस्य कृते?
एका,
एका, एका,
एका त्रिचक्रिका.
अनन्तरं
चमसः.
सम्यक्. हौ मेनि आर् देर्?
पञ्च. पञ्च,
पञ्च
चमसानि. चमसाः,
चमसाः. ओके, पञ्च चमसाः. चिन्तयतु, एकैकं स्वीकृत्य चिन्तयतु वि विल् गिव् मोर् टैम् डोण्ट् वरि एट् आल् वि विल् रिपीट् अगेन् अण्ड् अगेन् सो
किमस्ति
अन्य कोऽपि जानाति वा
द्रोणी
द्रोणी
द्रोणी तत् कथं वयं वदामः हौ मेनि आर् देर्
वन् एक
द्रोणी इति स्त्रीलिङ्गे
एका द्रोणी
एका द्रोणी एका माला एका द्रोणी एका बालिका एका पाठशाला एका महिला और् स्त्रीलिङ्गि फार्म्स् ओके स्पष्ट अस्ति सेल्वि भगिनी
आं भगिनि
द लास्ट् वन् वाट् डु यु फैण्ड् इन् द लास्ट् पिक्चर्
केप्
सो वाट् इस् द नेम् आफ़् केप् सो तत्र नपुस्तकलिङ्गे अस्ति भगिनि हौ मेनि आर् तत् कथं भवति षट् अस्ति चेत् त्रिषु लिङ्गेषु समानं तत् षट् एव अस्ति
षट् शिरवस्त्राः
शिर शिरस्त्रम् इति अस्ति शिरस्त्रम् इति अस्ति इत्युक्ते नपुंसकलिङ्गे अस्ति फलं फले किं भवति
फलं फले फलानि
कथं भवति शिरस्त्रम् इत्यस्य
षट् स्रवस्त्रं वस्त्राणि
पुनः एकवारं वदतु
षट् स्रवस्त्रं वस्त्राणि
णत्वं भवति प्रकारौ ओके स्पष्टमस्ति खलु भगिनि
आं भगिनि
उत्तमं धन्यवादः
धन्यवादः धन्यवादः
इदानीं श्रीवत्स महोदय अस्ति वा
आं भगिनि नमस्ते
नमस्ते भवान् वदति वा
आं भगिनि
वदतु
त्रीणि पुस्तकानि
सम्यक्
पञ्चकन्दुकाः
सम्यक्
पञ्चकन्दुकाः द्वे माला
द्वे
माला
कथं भवति गीता माला सीता द्विवचन
द्वे माले
सम्यक् सम्यक्
द्वे माले एकः शिशुः
एकः शिशुः सम्यक् अनन्तरं
बेङ्गल्
दट् इस् कङ्कणम्
कङ्कणम् ओके द्वे द्वे कङ् द्वे द्वे कङ्कणे
बहु सम्यक् द्वे कङ्कणे ओके अग्रिमे पठतु
एण्ट्
एण्ट् सो वाट् डु यु काल् इन् संस्कृत्
ऐ एम् नॉट श्योर्
ओके ट्राय् एनिबडि एल्स् पिपीलिका सच् अ लाङ्ग् वर्ड् पिपीलिका इति अस्ति सो पिपीलिका अन्तिमे आकार श्रूयते इत्युक्ते
स्त्रीलिङ्गे स्त्रीलिङ्गे तिस्रः पिपीलिका तिस्रः पिपीलिकाः
पिपीलिकाः एवमस्ति अग्रिमे
अम्बा धेनुः
धेनुः
त्री धेनुः इस् पुल्लिङ्गः स्त्रीलिङ्गः तिस्रः तिस्रः
तिस्रः
धेनुः
धेनवः
धेनवः
इति अस्ति उकारान्तधेनु तस्य बहुवचनान्तरूपं भवति धेनवः एवं
धेनवः
अग्रिमे
I don't know the Sanskrit word.
Okay. Say about the number. How many are there?
Pancha.
Trishulingeshu samana.
Samana.
Okay, pancha eva asti. Tasya shabdam asti gruha godika. Gruha godika. Vallidhar asti khalo. Gruha godika eva. Antime akara shruyate. Idanim vadate.
स्त्रीलिङ्गः पञ्चगृहगोदिकाः
बहु सम्यक् पञ्चगृहगोदिकाः एवम् अग्रिमे
त्रीणि इट्स् तिस्रः 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 अङ्कणाः
अङ्कन्यः
अङ्कन्यः ओके
कन्यः अङ्कनी ई अस्ति नदी नद्यो नद्यः अङ्कन्यः एव इट्स् अ गुड डिविजन राइट सो वी आर रिलेटिंग नंबर एंड आल्सो द ऑब्जेक्ट्स
ऑब्जेक्ट्स
सम्यक् द लास्ट वन
मूषकः पुल्लिङ्गः सो त्रयः मूषकः त्रयः मूषकाः
मूषकाः ओके सम्यक् बहु बहु सम्यक् धन्यवादः इदानीं त्रिविक्रम महोदय वदति वा त्रिविक्रम महोदय अस्ति वा वदति वा
पञ्चः
गर्दभाः गर्दभाः एवं
पञ्चः गर्दभाः
तत्र पञ्च इति नास्ति भगिनी पञ्च गर्दभाः
पञ्च गर्दभाः
अग्रिमे षट् इति अस्ति तत्र बटर्फ्लै शब्दस्य चित्रशलभः चित्रशलभाः षट् चित्रशलभाः सम्यक् अग्रिमे लेखन्यः नदी नद्यो नद्यः लेखन्यः लेखन्याः इति न भवति लेखन्यः षट् लेखन्यः सम्यक् अग्रिमे
द्वे शुकः
शुकः कस्मिन् लिङ्गे वर्तते भगिनी
पुल्लिङ्गः
कथं भवति द्वे इति तु योग्यम् अस्ति अस्ति वा द्वौ द्वौ शुकः अस्ति वा रामः रामौ रामाः शुकः शुकौ शुकाः
द्वौ शुकाः
द्वौ शुकौ एकः रामः द्वौ रामौ त्रयः रामाः एकः शुकः द्वौ शुकौ त्रयः शुकाः अतः अत्र किम् आगच्छति द्वौ शुकौ
द्वौ शुकौ
सम्यक् अस्ति भगिनी सम्यक् अस्ति न अग्रिमे पठतु अग्रिमे वदतु
एकं दूरदर्शनम्
सम्यक् नपुंसकलिङ्गे अस्ति एकं दूरदर्शनम् अग्रिमे
पञ्चः स्थूयताः
पञ्चः पञ्चः इति न पञ्च स्यूताः
पञ्चः स्यूताः
स्यूताः अग्रिमे अग्रिमे किमस्ति
द्वौ द्वौ मयूरौ
बहु सम्यक् द्वौ मयूरौ द्वौ मयूरौ एवमस्ति
त्रीणि
द्वौ मयूरौ
द्वौ मयूरौ त्रीणि फलानि
फलं फले फलानि त्रीणि फलानि तत्र अस्ति आम्रफलानि दृश्यते एवं खलु आम्रफलानि सन्ति खलु तत्र
आम्रफलानि
सीज़न् अस्ति खलु सीज़न् प्रचलति आम्रफलानि सन्ति तत्र अस्तु त्रीणि फलानि अग्रिमे किमस्ति अग्रिमे
एकः व्याघ्रः
एकः व्याघ्रः सम्यक् अग्रिमे
एकः कपोतः
एकः कपोतः वेरि नैस् धन्यवादः भगिनी धन्यवादः भवती गतसप्ताहे न आसीत् वा भगिनी त्रिविक्रम भगिनी यु वेर् नाट् डेर् फोर् द लास्ट् सेशन्
मम परीक्षा
अस्ति अस्तु अस्तु ओके सम्यक् नौ लेट् अस् डू दिस् एक्सर्सैज् सो टुडे वी विल् फोकस् आन् दिस् मेक्सिमम् अफ्कोर्स् वी हाव् स्टोरी टैम् एण्ड् वी हाव् सम्थिङ्ग् इण्ट्रेस्टिङ्ग् आल्सो बट् लेट् अस् मेक् दिस् कान्सेप्ट् वेरि क्लियर् फार् आल् आफ़् अस् रमणी भगिनी अस्ति वा रमणी भगिनी
आं भगिनी नमस्ते
नमस्ते एवं करोति वा आवरणे दत्तनाः सङ्ख्यानां करोति वा
आं भगिनी आवरणे दत्तनाः सङ्ख्यानां सहायेन स्थानानि पूरयतु एका गायिका मधुरं गायति
तत्र उदाहरणार्थं दत्तमस्ति तत् किम् अपेक्षते इति दत्तमस्ति गायिका मधुरं गायति तत्र एक इति सङ्ख्या दत्तमस्ति तत् गायिका अस्ति चेत् स्त्रीलिङ्गी एका गायिका मधुरं गायति इति भवति अग्रिमे पठतु
पथिकाः मार्गं षट् पथिकाः त्रयः पथिकाः मार्गेण गच्छन्ति
सम्यक् अग्रिमे
चतस्रः महिलाः सम्भाषणं कुर्वन्ति
बहु सम्यक् अग्रिमे
चत्वारः युवकाः सैनिकाः आसन्
करेक्ट्
द्वौ आरक्षकौ याने गच्छतः.
वेरि करेक्ट्. अग्रिमे
षट् वानराः तरुण् आरोहन्ति.
आरोहन्ति तरुण् आरोहन्ति. तरुण् आरोहन्ति इत्युक्ते किं भगिनि?
वृक्षे आरोहन्ति.
आरोहणं कुर्वन्ति. आरुह्य कविता शाखा वन्दे वाल्मीकिकोकिलम् इति अस्ति न, दर् क्लैम्बिङ्ग् आन् तरु इति. सम्यक्. अग्रिमे पठतु. अग्रिमे
त्रयः छात्राः गुरुं प्रश्नान् अपृच्छन्.
सम्यक्.
त्रयः अतिथयः गृहे आगच्छन्ति.
सम्यक्.
त्रयः अधिकारिणः विद्यालयं विद्यालयं द्रष्टुम् आगतवन्तः. आगतवन्तः.
सम्यक्.
एकं पुस्तकम् अहं दास्यामि.
एकं पुस्तकम् अहं दास्यामि. एवमस्ति. बहु सम्यक्.
धन्यवादः भगिनि.
धन्यवादः. इदानीं राघवमहोदय अस्ति वा तत्र? राघवमहोदय
भगिनि नमस्ते.
नमस्ते नमस्ते. इदानीं वयं किं कुर्मः, नौ लेट् अस् गो फार् सम् सार्ट् आफ् ओरल् वर्क्. ओके. के के सन्ति अत्र पश्यामि. अम्बिकापतिमहोदय, नमो नमः अम्बिकापतिमहोदय.
नमो नमः भगिनी. क्षम्यतां.
आगतवती अनिता भगिनी, नमो नमः. श्यामला भगिनी अपि अस्ति. श्यामला भगिनी
नमस्कारः. नमस्ते भगिनी. क्षम्यताम्. आगत विलम्बेन आगतवती.
अस्तु अस्तु अस्तु.
अहं द्विवारे टौन् ऐ एम् नाट् वास् नाट् इन् टौन् सो जस्ट् टुडे ओन्ली ऐ जायिन् बेक्.
ओके अस्तु अस्तु. चिन्ता मास्तु. ओके नौ लेट् अस् डू सम् ओरल् वर्क् अगेन्. वाट् वी हाव् स्टडीड् हियर् इस् तत्र त्रिषु लिङ्गेषु समानः रूपाणि सन्ति पञ्चमात् आरभ्य. तस्मात् प्राक् किं भवति, पुल्लिङ्गस्य कृते एकः, द्वौ, त्रयः, चत्वारः. नौ लेट् अस् फ्रेम् सम् क्वश्चन्स्. ऐ विल् बि आस्किङ्ग् यु क्वश्चन्स् एस् फार् एस् पासिबल्. डोण्ट् रिफर् टु द नोट्स् आर् एनिथिङ्ग्, जस्ट् ट्रै टु रिकाल्. ओके सो पुल्लिङ्गस्य कृते किं भवति, एकः, द्वौ, त्रयः, चत्वारः. स्त्रीलिङ्गे अस्ति चेत् किं भवति, एका, द्वे, तिस्रः, चतस्रः. नपुंसकलिङ्गे अस्ति चेत् एकं, द्वे, त्रीणि, चत्वारि. ओके नौ लेट् अस् डू सम् एक्सर्सैस्. ऐ जस्ट् फ्रेम् द सेण्टेन्स् एण्ड् हियर् वी आर् कम्बैनिङ्ग् टु थ्री एलिमेण्ट्स् टुगेदर्. यु केन् अण्डर्स्टाण्ड् हौ टु मेक् द सेण्टेन्स्. यु केन् अण्डर्स्टाण्ड् हौ टु यूस् द नम्बर्, एक्साक्ट् नम्बर्, एक्साक्ट् सङ्ख्या एण्ड् आल् एव्रिथिङ्ग् एण्ड् हौ टु मेक् प्लूरल्, देट् इस् आल्सो देर् फैन्. राघवमहोदय अत्र अस्ति, आरम्भं कुर्मः. राघवमहोदय शृणोतु. उत् ओके हा सी आन् द टेबल्, आन् द टेबल् देर् आर् वन् बाय्, वन् गर्ल् एण्ड् वन् बुक्. वुड् यु प्लीस् फ्रेम् द सेण्टेन्स्.
एकः बालकः.
सम्यक्.
एका बालिका.
बहु सम्यक्.
एकं पुस्तकम्.
On the table.
Oh, एकः एकं पुस्तकं.
उत्र सन्ति on the table. इत्युक्ते उत् उत्पीठिकायां
अस्ति.
ओके पुनः एकवारं सम्पूर्णं वाक्यं वदतु.
एकं पुस्तकम् उत्पीठिकायाम् अस्ति.
तत्र किं कानि कानि वस्तूनि सन्ति? वन् बाय् वन् गर्ल् एण्ड् वन् बुक् आन् द टेबल्.
एकः बालकः, एका बालिका, एकं पुस्तकं च उत्पीठिकायां सन्ति.
बहु सम्यक्, बहु सम्यक्. नेक्स्ट् सेण्टेन्स्. त्रि रिवर्स् त्री मौण्टेन्स् त्री रिवर्स् त्री मौण्टेन्स् त्री फारेस्ट् आर् इन् द पिक्चर् आर् इन् द पिक्चर् वदतु.
अहं वदामि
तिस्रः नद्याः
तिस्रः नद्यः
त्रयः पर्वताः.
बहु सम्यक्, त्रयः पर्वताः. अनन्तरं
त्रीणि वनानि चित्रे सन्ति.
बहु सम्यक्, बहु सम्यक्. नागमति. धन्यवादः, धन्यवादः,
धन्यवादः भगिनि.
इदानीं वीणा भगिनी, वीणा भगिनी अस्ति वा?
अस्मि भगिनि.
लिसन्, टु मङ्कीस् टु लीव्स् टु गर्ल्स् आन् द बनियन् ट्री.
आन् द
बनियन् ट्री, बनियन् ट्री.
बनियन् ट्री, ओके. द्वे वानरे.
तत्र वानर इति लिङ्ग पुल्लिङ्ग स्त्रीलिङ्ग वा नपुंसकलिङ्ग?
वानरः, पुल्लिङ्ग, ओके. द्वौ वानरौ.
सम्यक्.
द्वौ वानरौ. वाट् वास् द सेकेण्ड् थिङ्ग् भगिनि? सोरि.
टु लीव्स्. टु लीव्स्.
लीव्स्. द्वे पत्रे.
बहु सम्यक्. एण्ड् टु गर्ल्स्.
द्वे बालिका.
द्वे
बालि द्वे बालिके.
बालिके, सम्यक्.
द्वे बालिके. द्वे बालिके. वृक्षः उपरि उपरि सन्ति.
वटवृक्ष इति बनियन् ट्री. वटवृक्ष
वटवृक्ष उपरि सन्ति.
वटवृक्षे सन्ति वा वटवृक्षस्य शाखायां सन्ति. वाट् एवर् दट् इस् करेक्ट्. वेरि नैस्. सो फैन्, वन् मोर् सेण्टेन्स् फार् यु भगिनी. लिसन् केर्फुलि. फोर् ट्रीस् फोर् ट्रीस् फोर् हौस् एण्ड् फोर् गार्लेण्ड्स् इन् द बाक्स् वदतु.
चत्वारः वृक्षाः.
सम्यक्.
चतस्रः मालव्यः.
मालाः. मालाः.
माल चतस्रः मालाः. एण्ड् द नेक्स्ट् ऐटम् भगिनि?
फोर् हौसेस्. फोर् हौसेस्.
हौसेस्. चत्वारि गृहाणि.
इन् द बाक्स्.
बाक्सेस्.
पेटिका.
पेटिके सन्ति.
पेटिकायां सन्ति.
पेटिकायां सन्ति.
अस्तु, करेक्ट्. ओके, इदानीं धन्यवादः भगिनी. धन्यवादः.
धन्यवादः.
धन्यवादः. अनिता भगिनी वदति वा? अनिता भगिनी.
वदामि, वदामि. वदतु भगिनि.
यस्. Seven peacocks. Seven peacocks. Seven peacocks. seven sparrows and seven aeroplanes.
सप्तमयूराः स्पेरोस् सप्त ऐ फोगॉटन स्पेरोस्
यस् कोऽपि साहाय्यं करोति वा शुकः इत्युक्ते
पैरट् स्पेरो
षटकाः
सप्तषटकाः षटकाः यस् यस् षटकाः चटकाः ओके सप्तमयूराः सप्तचटकाः सप्त सप्तवन
एरोप्लेन्स्
वनान् नो ओ जीस् विमानानि सप्तविमानानि च I'm sorry, I'm totally gone.
No, no, you have not gone anywhere. You are perfectly all right. In the sky, ityukte akashe santi.
Akashe santi. Sapta mayuraha, sapta chatakaha, sapta vimanani cha akashe santi. Thank you.
No, Samya. Correct. One more for you.
Oh, no. Yeah. Go on.
Five lotuses. Igaanim, five lotuses. Then six mobile cells. Five lotuses, six mobile cells. And eight girls.
Mm-hmm.
Gathered in the garden. In the garden.
Pashtabalika.
Okay.
In the gardens. Mobile phone. What is mobile phone?
Mobile?
Varadooravani. Jangamadooravani.
Brahmadooravani.
Brahmana.
Anya shabda kaha vadati punah ekavaram vadatu?
Jangamadooravani, Beni. Jangamadooravani.
जनमधुरवाणि दूरवाणी
टेलिफोन् कृते शब्दः अस्ति तत् मोबैल् भवति चेत्
ओके पञ्चकमलानि षट् भ्रमणवर्णानि अष्टबालिका दूरवाण्या
अष्टबालिकाः
च उद्याने सन्ति
बहु सम्यक् धन्यवादः श्यामला भगिनी अस्ति वा
अस्ति भगिनि अस्ति भगिनि
इदानीं शृणोतु कृपया सिक्स् कप्स् अनन्तरं सिक्स् कप्स् नैन् लेडीस् सिक्स् कप्स् नैन् लेडीस् and 10 pages six cups nine ladies and 10 pages kept in a hall
six cups
षट्
षड् चषकाः
सम्यक्
अनन्तरं
नैन् लेडीस्
नैन् लेडीस् नव नव आत्मीया नव महिलाः अनन्तरं दश पुरुषाः
पेजेस् पेजेस् इत्युक्ते पत्रं
पत्रं
तस्य बहुवचनं भवति टेन् इन् नम्बर्स् अस्तु पत्रं बहुवचनान्तरूपं
पत्रं पत्रम् इत्युक्ते किं भगिनि
पत्रमित्युक्ते पेज् पेज् पेज्
पेज् पेज् पेज् अस्तु दश पत्राः
दशपत्राणि
दशपत्राणि
किमर्थं पत्राणि भवति नपुंसकलिङ्गे अस्ति एवं खलु
लिखति चेत् पत्राणि
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 नौ वन् मूव् फार् यू सिम्पल् वेरि सिम्पल् एट् मेन् एट् गर्ल्स् एट् फ्रेण्ड्स् सिङ्गिङ्ग् इन् अ पाण्ड्
अष्ट अष्ट पुरुषाः
सम्यक्
अष्ट महिला बालिकाः
सम्यक्
बालिकाः अनन्तरं अष्ट
अष्ट
अष्ट पुरुषाः
एट् फ्रेण्ड्स् एट् फ्रेण्ड् इति
अष्ट अष्ट फ्रेण्ड्स् इत्युक्ते छात्राः
मित्राः
मित्राः मित्राः अस्ति
मित्रम् इति अस्ति फ्रेण्ड् इति अर्थे मित्रम् इस् आल्वेस् इन् न्यूट्रल् जेण्डर् मित्रः पुल्लिङ्गे सूर्यः मित्रः पुल्लिङ्गे रूपम् अस्ति चेत् सूर्यः इति अर्थः परन्तु
मित्रः
मित्रं तत्र दे आर् 18 नम्बर् सो कथं भवति वदतु अष्ट
अष्ट अष्ट दश
अष्ट मित्रम् इति पुल्लिङ्गरूपं किं भवति मित्रं शब्दस्य बहुवचनानि पुल्लिङ्गरूपं
पुल्लिङ्गं मित्रं
बहुवचनान्तं कथं भवति पुष्पं शब्दस्य बहुवचनान्तं किं भवति
पुष्पाणि
मित्रं शब्दस्य किं भवेत्
मित्राणि
बहु सम्यक् नव मित्राणि ओके
नव मित्राणि
स्पष्टमस्ति
स्पष्टं भगिनि
धन्यवादः धन्यवादः
धन्यवादः माता
नौ श्रीवत्स महोदय
आं भगिनि
इदानीं दिस् इस् फोर् यू टेन् टेन् मेल्स्
टेन्
मेल्स् टेन् मेल्स् अनन्तरं टु टु रिवर्स् 10 मेल्स् 2 रिवर्स्
रिवर्स्
एण्ड् 10 फिमेल् गोट्स् 10 मेल्स्
फिमेल्
फिमेल् गोट्स् फिमेल्
गोट्स्
इन् द आश्रम
इन् द आश्रम 10 मेन्स् रैट् फस्ट् वन्
यस् 10 मेल्स्
10 मेल्स् दशपुरुषाः
सम्यक्
दशपुरुषाः टु रिवर्स् सो द्वे नद्यौ द्वे नद्यौ दश फीमेल् गोड्स् what is goat's word for
insect? Male goat is aja. Aja.
Aja. Aja. Dasha ajaha.
Somewhere in the
Dasha ajaha. Ashrame santi.
Ashrame santi. So, I think now this concept is clear to all of you. And let us move for the next one. I hope you are not bored. Was it too much heavy?
No, Bhagini.
Fine. So now let us go again for screen sharing. See, whenever we use 2-3 elements together, then it becomes very helpful for us to learn. Okay. So, idanim will go for the simple one, comparatively. We just have to read it. Jayanti Bhagini Pathati Va?
Haan, Bhagini Pathami.
Katham Karaniyam Asti? Ek Anivisham. Katham Karaniyam Asti? Jayanti Bhagini Anantaram? अनिता भगिनी जयन्ती भगिनी अनिता भगिनी तत्र क्षम्यताम् अनिता भगिनी इदानीम् उक्तवती जयन्ती भगिनी राधा भगिनी जयन्ती भगिनी वदति एकं राधा भगिनी एकं द्वे जयन्ती भगिनी एकं द्वे त्रीणि राधा भगिनी एकं द्वे त्रीणि चत्वारि ओके लैक् देट् एस् फार् एस् डोण्ट् ट्रै टु सी द स्क्रीन् ट्रै टु रिकाल् आन् युर् ओन् एस् फार् एस् पासिबल् नो चेत् स्क्रीन् दृष्ट्वा वक्तुं शक्नोति आरम्भ जयन्ती भगिनी राधा भगिनी
संख्याक्रीडा एकं द्वे त्रीणि
एकं द्वे त्रीणि चत्वारि
एकं द्वे त्रीणि चत्वारि पञ्च
एकं द्वे त्रीणि चत्वारि पञ्च षट्
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
बहु सम्यक् इदानीं किं करिष्यति अनदर्गे अनिता भगिनी अनिता भगिनी वीणा भगिनी अनिता भगिनी वीणा भगिनी इदानीं किं करणीयस्य अनिता भगिनी विल् से एकम् एट् राण्डम् शि केन् पिक् अप् एनिथिङ्ग् शि विल् से एकं द्वे त्रीणि चत्वारि पञ्च एण्ड् देन् वीणा भगिनी विल् हौ टु कण्टिन्यू वित् द सेम् वन् So, she will say, if she is saying ekam dve trini chatvari pancha, then you have to say ekam dve trini chatvari pancha shat. If she is saying ekam dve, then you will be continuing. Ekam dve trini. If she is saying something like that. Okay? Start.
Yeah.
As far as possible, don't see the screen. Start.
Ekam dve trini chatvari pancha.
एकं द्वे त्रीणि चत्वारि पञ्च षट्
एकं पञ्च सप्त
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट
एकं द्वे त्रीणि चत्वारि
एकं द्वे त्रीणि चत्वारि पञ्च
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट
एकम्
एकं द्वे
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश
बहु सम्यक् 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 अस्ति सम्यक्
धन्यवादः
धन्यवादः ओके सम् मोर् इण्टरेस्टिङ्ग् थिङ्ग्स् आल्सो ऐ हव् ब्रोट् फोर् यू ओके नौ वी शल् स्टार्ट् वित् द स्टोरी अण्ड् देन् देट् इण्टरेस्टिङ्ग् पार्ट् आफ़् द शो ओके शृण्वन्तु सर्वे एकस्मिन् गुरुकुले बहवः छात्राः सन्ति कति छात्राः सन्ति सेल्वी भगिनी
बहवः छात्राः सन्ति
बहवः छात्राः सन्ति ओके संख्यादर्शक एव अस्ति बहवः शब्दः खलु एकस्मिन् गुरुकुले बहवः छात्राः सन्ति ते छात्राः आचार्यं वदति एकस्मिन् दिने नमो नमः आचार्य पार्श्वस्थे ग्रामे उत्सवः प्रचलति ओके सम् सेलिब्रेशन् फेस्टिवल् इस् गोयिङ्ग् आन् इन् द एड्जोयिनिङ्ग् रिवर् अतः वयं छात्राः सर्वे अपि तत्र गत्वा उत्सवं दृष्ट्वा सायङ्काले आगमिष्यामः they want to go to the adjoining village to see the festival so they are asking for the permission drushtva sayankale agamishyamah they are promising that we'll be returning back in the evening krupaya anumatim dadatu iti yachanam krutavan guru api anumatim dadati sma But Guru has got some fear in his mind. So he is saying, Chhatra, Utsave jana sammardaha adhikaha bhavati. It would be very crowded in the festival. Yadi Chhatreshu kaschana paribhrashtaha bhavet, tarhi kim kurmaha? If anybody is missed out there in the village among the crowd, then what to do? Guru has got fear in his mind. Yadi chhatreshu kaschana paribhrashtah bhavet tarhi kim kurmah? Kim kurmah tat vishe Guru vadati agrime yushmasu ज्येष्ठः अस्ति रामः युष्मासु ज्येष्ठः सः सर्वान् जागरूकतया नयति हि विल् टेक् केर् आफ् यू हि विल् टेक् यू टु द विलेज् बट् किं करणीयं हे राम भवान् सङ्ख्या जानाति किं डु यु नो द काउण्टिङ्ग् डु यु नो द नम्बर् इति गुरुः पृष्टवान् वदतु सो रामः सङ्ख्याम् अवदत् सेम् वे वट् वी हव् लर्न् टुडे हि इस् जस्ट् अटरिङ्ग् द नम्बर्स् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश दट्स् वट् हि सेड् एकवारं वदतु सेल्वी भगिनी किम् उक्तवान् रामः
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश.
ओके, सो हि इस् अटरिङ्ग् आल् द नम्बर्स्, हि इस् अटरिङ्ग् आल् द नम्बर्स्. नो दीस् वन् टु त्री फोर् नम्बर्स् इत्युक्ते संस्कृतभाषायां द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश, दीस् आर् नोन् एस् कार्डिनल्स्, नो न कार्डिनल्स् नम्बर् वन् टु त्री फोर् फैव्. गुरुः अनन्तरं छात्रान् गणयति. सो नौ वट् गुरु इस् डूयिङ्ग्, हि स्टार्टेड् कौण्टिङ्ग् दि नम्बर् आफ् स्टूडेण्ट्स्. राम किं कृतवान्? सङ्ख्याम् अवदत्, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश, आल् कार्डिनल् नम्बर्स्. बट् गुरु वट् इस् हि डूयिङ्ग्? छात्रान् गणयति. कथम्? एषः प्रथमः, एषः द्वितीयः, प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः. ओके, सो नौ वाट् इस् हि डूयिङ्ग्? हि इस् कौण्टिङ्ग् द नम्बर्स्. सो वाट् ऐ सेड् जस्ट् नौ, प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः, दीस् आर् नोन् एस् ऑर्डिनेंस. ऑर्डिनेंस इत्युक्ते फर्स्ट सेकंड थर्ड फोर्थ लाइक दैट. कार्डिनल्स इत्युक्ते वन टू थ्री. ऑर्डिनेंस इत्युक्ते पूर्ण प्रत्ययांताः क्रमवाचकतां दर्शयन्ति. पूर्ण प्रत्ययांताः, जस्ट कीप इन योर माइंड. ओके, दिस इज नॉट समथिंग दैट इन द सिलेबस एंड ऑल, बट व्हेनेवर वी आर काउंटिंग, वी आर गोइंग बाय फर्स्ट सेकंड थर्ड, वी हैव टू यूज दिस टर्मिनोलॉजी, पूर्ण प्रत्ययांताः. ऑर्डिनल्स वॉट वी से इन आंग्ल भाषायां, क्रमवाचय क्रमवाचकतां दर्शयति. सो ही इज काउंटिंग, गुरु छात्रान गणयति. कथम? प्रथमः द्वितीयः तृतीयः एंड सो ऑन. ओके, सो देन ही इज सेइंग, आफ्टर काउंटिंग गुरु इज सेइंग, पश्यन्तु सर्वे, भवन्तः दश छात्राः. दश छात्राः, दश त्रिषु लिङ्गेषु समानः, छात्राः पुल्लिङ्गे बहुवचनान्तरूपं, देर् इस् नो चेञ्ज् इन् दश. दश छात्राः, पश्यन्तु भवन्तः दश छात्राः. मध्ये मध्ये परिशीलन्तु, परिशीलनं करोतु. जस्ट् कीप् आन् आब्सर्विङ्ग् इन् बिट्वीन्, कीप् चेकिङ्ग् इन् बिट्वीन् वाट्. सर्वे आगताः वा न, कश्चन परिच्युक्तः वा. ओके, जस्ट कीप ऑन चेकिंग इन द मिडिल विद ऑल आर देयर और नॉट, और इफ एनीवन हैज लॉस्ट, जस्ट कीप वॉचिंग. मध्ये मध्ये परिशीलन्तु. सो व्हाट इज एक्सपेक्टेड फ्रॉम देम? इन बिटवीन अगेन कीप काउंटिंग whether all 10 are there or not. 1, 2, 3, 4, 5, 6, 7, 8, first, second, third, fourth, like that. Keep counting in between. Either 1, 2, 3, 4, 5, 6 or first, second, third, fourth, like that. That's what Guru suggested. Okay, that's all. So they left the ashram and then they went to the village. Anantaram sarve chhatraha sotsaham उत्सवे भागं गृहीत्वा ग्रामं दे वाण्ट् टु रिटर्न् टु द ग्राम, बट् बिफोर् देट् दे हेड् अ वण्डर्फुल् टैम्, सो मधुरं भुक्त्वा तत्र ग्रामं प्रत्यागच्छन्ति. नौ दे आर् गोयिङ्ग् बेक् टु द रिवर्, बेक् टु द विलेज्. मध्ये मध्ये किम् अभवत्? राम, हु इस् द ज्येष्ठ वन्, रामः ज्येष्ठछात्रः, सः वदति क्षणम् अत्रैव तिष्ठन्तु सर्वे, बिकास् ही गोट् रिस्पान्सिबिलिटी, हि हेज़् अ रिस्पान्सिबिलिटी टु काउण्ट् द नम्बर् एण्ड् टु चेक् वेदर् इफ् एनी वन् इस् लास्ट् आर् नाट्. सो तिष्ठन्तु सर्वे, एकवारं गणयामि, अहं पश्यामि सर्वे अत्र सन्ति वा न वा इति उक्त्वा रामः गणनम् आरब्धवान्, स्टार्टेड् काउंटिंग दि नम्बर् आफ् स्टूडेण्ट्स् किं कृतवान् सः एकः एकम् अगेन् कौण्टिङ्ग् आल् द नम्बर् सो हि इस् कौण्टिङ्ग् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एवं सः गणनां कृतवान् परन्तु तत्र नवछात्राः एव सन्ति वाट् कुड् बि द रीज़न् वेन् राम् स्टार्टेड् कौण्टिङ्ग् हि फौण्ड् देर् आर् जस्ट् नैन् स्टूडेण्ट्स् वाट् कुड् बि द रीज़न् जस्ट् टेल् मी इमेजिन् आत्मानं त्यक्त्वा एक्सेप्ट् oneself, except himself, आत्मानं त्यक्त्वा अन्यान् सर्वान् सः गणयति ओके सो टेक् इन् टु कन्सिडरेशन् हिस् ओन् नम्बर् तत् त्यक्त्वा अन्यान् एव गणयति पुनः पुनः गणयन्ति अनन्तरं वदति दशमः कुत्र ओके अस्मासु कश्चन परिच्युतः अस्ति रोदितुम् आरब्धवान् सः स्टार्टेड् क्रैङ्ग् कुत्र अस्ति दशमः रामः गणनां कृतवान् अनन्तरं तत्र गोपालः अस्ति गोपालः अपि गणनां कृतवान् सः अपि रिपीटेड् द सेम् मिस्टेक् आत्मानं त्यक्त्वा अन्यान् सर्वान् गणनां कृतवान् इदानीं किम् अभवत् अनन्तरं तृतीयः अपि तत्र अस्ति लक्ष्मणः सः अपि तथैव कृतवान् देन् दे लास्ट् देयर् टेम्पर् छात्राः रोदनम् आरब्धवन्तः तत्र एकः पथिकः आगतवान् एकः पथिकः आगतवान् ट्रावेलर् सः कोलाहलं श्रुतवान् का समस्या भवत्याः भवतां कृते इति अपृच्छत् छात्राः सर्वं वृत्तान्तं वदन्ति स्म तत् श्रुत्वा पथिकः हसन् उक्तवान् एवं कुर्वन्तु भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु वाट् डु वी मीन् बै पङ्क्तिरूपेण पङ्क्ति इत्युक्ते पङ्क्तिरूपेण तिष्ठन्तु एण्ड् देन् ही स्टार्टेड् कौण्टिङ्ग् नौ हौ इस् हि कौण्टिङ्ग् एकः द्वौ त्रयः चत्वारः पञ्च षष्ठ सप्त अष्ट नव दश न इदानीं हि सिङ्ग् एकः द्वौ त्रयः चत्वारः किमर्थं वै
पुल्लिङ्ग
आल् अ बाय्स् तत्र छात्राः सन्ति सो हौ जस्ट् सी इन् दिस् स्टोरी त्री पायिण्ट्स् वी हव् टु रिमेम्बर् प्रथमता तु आचार्यः रामं गणनाविषये पृष्टवान् तत् रामः उक्तवान् भवती भवान् सङ्ख्या जानति वा इति पृष्टवान् रामः उक्तवान् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश सङ्ख्याम् उक्तवान् अनन्तरं गुरुः छात्रान् गणनां कृतवान् तत् कथं पूरणप्रत्ययान्ता ऑर्डिनल्स् फस्ट् सेकेण्ड् थर्ड् प्रथमः द्वितीयः तृतीयः चतुर्थः पञ्चमः षष्ठः सप्तमः अष्टमः नवमः दशमः दट् इस् दि कौण्टिङ्ग् पार्ट् अनन्तरं पथिकः ट्रावेलर् हि आस्क्ड् देम् टु स्टाण्ड् इन् अ क्यू इन् अ लैन् एण्ड् देन् नौ हि इस् कौण्टिङ्ग् एकः द्वौ त्रयः चत्वारः पञ्च षष्ठ सप्त अष्ट दश देट् मीन्स् हि वाण्टेड् टु शो यु हाव् एकः छात्रः इदानीं भवान् अपि आगच्छन्तु द्वौ छात्रौ त्रयः छात्राः चत्वारः छात्राः पञ्च छात्राः सन्ति षष्ठ छात्राः सन्ति पश्यन्तु सप्त छात्राः सन्ति अष्ट छात्राः अपि सन्ति नव छात्राः अपि सन्ति दश छात्राः सन्ति भवन्तः दश एव छात्राः सन्ति, न कोऽपि परिभ्रष्टः, nobody is missing, don't cry. Okay, so these are the three ways by which counting is done in the story. At that moment, छात्राः गणने दोषं ज्ञातवन्तः. कः दोषः अभवत् तस्मिन् विषये छात्राः ज्ञातवन्तः. इदानीं सर्वे सन्तोषेण ग्रामं गतवन्तः. ओके, अण्डर्स्टूड्? एव्रिबडि हेज़् अण्डर्स्टूड्?
यस् भगिनि.
आं भगिनि.
So that is the story based on Ganana. Now, lastly, as per our usual practice, something very, very interesting. This is Ganana Sanskrit Bhashayam Katham Prachalati. Shastra Karena Tat Katham Krutam Asti Tasmin Vishe. अम्बिकापतिमहोदय वदति वा, पठति वा?
आं भगिनि,
कृपया पठतु.
एकम् एक
तत्र किमस्ति, अहं त्रीं कृतवती अत्र. एकम् इस् इक्वल् टु वन् इति आङ्ग्लभाषायाम् एव अहं लिखितवती. अनन्तरं वाट् इस् इक्वल् टु 10 to the power 0, right? So that is 10 to the power 0, 10 to the power 1. So this is something very interesting, how that Ganana is made in our ancient Sanskrit literature that I want to show. Okay? Shastra Karena Katham Krutam Asti Tasmin Vishe Atra Dattam Asti. Okay? So you can read like that. Ekam, which is equal to 1, which is equal to 10 to the power 0, like that. Okay?
दश दश पवर् किमर्थं वदामि?
दश इक्वल् टु 10 इक्वल् टु 10 टु द पवर् 1, दट् इस् 10 रेस् टु 1 इति.
शतम् इक्वल् टु 100 इक्वल् टु 10 टु द पवर् 2.
यस्.
सहस्रम् 1000 equal to 10 to the power 3. Ayutam, 10,000 10 to the power 4. Laksham, 10 to the power 5. Niyutam, 10 to the power 6. Koti, 10 to the power 7.
Agree me?
Koti, 10 to the power 7. Arbutam, 10 to the power 8.
Yes.
10 to the power 9.
Yes.
Sarvam, Sarvaha, 10 to the power 10. Sorry. Sarvaha. Sarvaha, 10 to the power 10. Nikarvaha, 10 to the power 11. Sankaha, 10 to the power 12. Padmaha, 10 to the power 13. Sagarah, 10 to the power 14. Antyam, 10 to the power 15. Madhyam, 10 to the power 16. Parardham, 10 to the power 17.
Yes. Very nice. So starting from 10 to the power 0, we have 10 to the power 4, 17. Right? So that is our mathematical number system. And there is one shloka. Ekam dashashatam chaiva sahasram ayutam tatha laksham chaniyutam chaiva koti 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 arbudam eva वृन्दं खर्वो निखर्वस्य शङ्खपद्मौ च सागरः अन्तं अन्तं मध्यम् अन्त्यं मध्यं परार्धं च dashavrudhya yathakramam. So that is the order given in our mathematics, ancient mathematics, starting from ekam dasha shatam sahasram ayutam laksham niyutam koti arbudam vrundam kharvah nikharvah shankah padma sagra antyam madhyam parardham. Is it not wonderful thing in our ancient Sanskrit literature? Yes or no?
Yes, Bhagini.
Yes.
Yes, but why did they need it?
Yes. Yes, Anita Bhagini.
What did they use it for? Why did they need it?
They needed for mathematics, no? They had such a developed mathematics system.
Yeah, that's true.
So that is all counted, and then especially that is my guessing. Especially celestial bodies. They were quite aware of celestial bodies and the distances among them and all. So they must be using that.
Yeah, that's true. Yeah, they have some Vedic mathematics and things, yeah.
Yeah. So let us salute them. And then, Idanim Vayam Stagayamaha. Kopi Prashnaha Stiva. सन्देहः अस्ति वा कृपया पृच्छन्तु
मम सन्देहः अस्ति कन्दुकम् इति पुल्लिङ्गशब्दं वा अदि कन्दुकम् इति नपुंसकलिङ्गशब्दं किल वा
तत्र कन्दुकः इति पुल्लिङ्गे वर्तते परन्तु कुत्रचित् तस्य कन्दुकम् एवं प्रयोगमपि दृश्यते भगिनि
तदेव मम सन्देहः आसीत्
परन्तु कन्दुकः एव पुल्लिङ्गी शब्द एव परन्तु कन्दुकम् इति दृश्यते एव सर्वेषाम् इदानीं स्पष्टता मनसि स्पष्टता वर्तते खलु कथम् एकः द्वौ त्रयः चत्वारः एवं रूपाणि भवन्ति चेत् स्पष्टता अस्ति इति मन्ये
आं भगिनि
आं भगिनि
आं भगिनि
आं भगिनि
प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु अस्ति वा प्रश्नः अस्ति वा नास्ति चेत् इदानीं शान्तिमन्त्रं कोऽपि वदति वा
वदामि भगिनि अहं
वदतु
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ सर्वं श्रीकृष्णार्पणमस्तु शुभमस्तु
धन्यवादः
भगिनि
धन्यवादः भगिनि
Thank you.